ततः स प्रयतो भूत्वा मम तात युधिष्ठिर प्राञ्जलिः प्राह विप्ररिषिर्नाम संग्रहमादितः ब्रह्म प्रोक्तैर् ऋषि प्रोक्तैर् वेद वेदांग संभवैः सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थ साधकैः ऋषीणा तण्डिना भक्त्या कृतैर्वेद कृतात्मना यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैस्तत्परमं ब्रह्म ब्रह्म प्रोक्तं सनातनम् पक्षे यदुकुलश्रेष्ठ शृणुष्वावहितो मम वरयेनं भवं देवं भक्तस्त्वं परमेश्वरं तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनं न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् युक्तेनापि विभूति नामपि वर्षशतैरपि यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते कस्तस्य शक्नुयाद्वक्तुं गुणान् कास्नये माधव किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया अनादिनिधनस्याहं जगद्यो निर्महात्मनः नाम्नां कञ्चित् समुद्देशं वक्षाम्यव्यक्तयोनिनः वरदस्य वरेणस्य विश्वरूपस्य धीमतः शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना दशनाम सहस्त्राणि यान्याह प्रपितामहः तानि निर्मथ्य मनसा दध्नोघृतमे मोदधृतं गिरिः सारं यथा हेम पुष्पसारं यथा मधु घृतात्सारं यथा मण्डस् तथैतत्सारमुद्धृतम् सर्वपापापहमिदं चतुर्वेदसमन्वितं प्रयत्नेनाधिगन्तव्यं भार्यं च प्रयतात्मना मङ्गल्यं पौष्टिकं चैव प्रक्षुघ्नं पावनं महत् इदं भक्ताय दातव्यं श्रद्धा नास्तिकाय च नाश्रद्धानरूपाय नास्तिकाय जितात्मने यश्चाभ्यसूयते देवं धारणात्मानमीश्वरं न कृष्ण नरकं याति सह पूर्वैः सहात्मजैः इदं ध्यानम् इदं योगम् इदं ध्येयमन उत्तमम् जप्यम इदम ज्ञानम रहस्यम इदम उत्तमम यम ज्ञात्वा अंतकालेपि गच्छेत परमां गतिं पवित्रं मंगलं मेध्यं कल्याणं इदम उत्तमम इदम ब्रह्मा पुरा कृत्वा सर्वलोक पितामहः सर्वस्वानां राजत्वे दिव्यानां समकल्पयत् तदा प्रभृति चैवायम् ईश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमर पूजितः ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्राप तेन तण्डीकृतो भवत् स्वर्गाच्चैवात्र भूर्लोकं तण्डिनायवतारितः सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् निगदिश्य महाबाहुस्तवनमुत्तममिस्तवम् ब्रह्मणामपि यत् ब्रह्म पराणामपि यत् परम् तेजसामपि यत् तेजस्तपसामपि यत् तपः शान्तानामपि यः शान्तो द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो भीमतामपि या च धीः देवानामपि यो देव ऋषीणामपि यत्स्पृशिः यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानां च कारणं यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजसः अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु यच्छ्रुत्वा मनुज व्याघ्र सर्वान् कामान् वाप्स्यसि स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरो गोचरोदनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेश प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तरहितात्मा प्रसादो है गर्दभिः पवित्रं च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयं भूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्र्या नमस्करता मृगबाणार्पणो नघः महातपा घोरतपा अदीनो दीन साधकः संवत्सरकरो मन्त्र प्रमाणं परमं तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः गणकर्ता गणपतिर् दिग्वासा कम एव च मन्त्रविद् परमो मन्त्र सर्वभाव करो हरः कमण्डल धरो धन्वी बाणहस्तः कपालवान् अशनी शतघ्नि खङ्गी पट्टिशी चायुधि महान् श्रुवहस्तः सुरूपश्च तेजस्तेजस्करुनिधिः कुशणीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च श्रृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कप्रद्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटी चिरवासाश्च रुद्रः सेनापतिर्विभुः अहश्चरो नक्तं चरस्तिग्मं मन्युः सुवर्चसः गजहादतिहाकालो लोकधाता गुणकरः सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरवृतः कालयोगी महानादः सर्वकामश्चतुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः परभामरमितो गतिः नित्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः घोरो महातपाः पाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायुहतिन्द्रितः अधर्षणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलहा मुदितोऽर्थो जितुवरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यक्रोधरूपो न्यक्रोधो वृक्षकर्णस्थितिर्विभो सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञ संयोगा पीडवाहनः तीक्ष्णतापश्च हर्यश्व सहाय कर्मकालवित् विष्णुप्रसादितो यज्ञ समुद्रो वडवामुखः हुताशन सहायश्च प्रशान्तात्महुताशनः उग्रतेजा मातेज जन्यो विजय कालवित् ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च शिखी मुण्डी जटी ज्वालि मूर्तिजो मूर्धगो बलि वेडवी पडवी ताली फली कालकटङ्कटः नक्षत्र विग्रह मतिर् गुण बुद्धिर्लयो गमः प्रजापतिर् विश्वबाहुर् विभागः सर्वगोमुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेढ्रजो बलचारी च महीचारी सुतस्तथा सर्वतूर्यनिनादी च सर्वातुद्यपरिग्रहः व्यालरूपो गुहावासी गुहो माली तरंगविद त्रिदशस्त्री कालधिकर्म सर्वबंध विमोचन बंधनस्त्व सुरेन्द्राणां युधि शत्रु विनाशन सांख्य प्रसादो दुर्वासाः सर्वसाधु निषेवितः कस्कंदनो विभागज्ञो तुल्यो यज्ञ विभागवित् सर्ववासः सर्वचारी दुर्वासा वासवो मरः हेमो हेम करो यज्ञ सर्वधारी धरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः संग्रहो निग्रहः कर्ता सर्प चीर निवासनः मुख्यो मुख्यश्च देहश्च काहलिः सर्व कामदः सर्वकाल प्रसादश्च सुबलो बलरूपधिक् सर्वकामवरश्चैव सर्वदः सर्वतोमुखः आकाश निर्विरूपश्च निपातीयवशः खगः रौद्ररूपो शुरादित्यो बहुरश्मिः सुवर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेश करो करः मुनिरात्मनिरालोक संभग्नश्च सहस्रदः पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो यश्वत्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः सिद्धयोगी महिषश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवांपतिः वज्रहस्तश्च विष्कम्भि चमुस्तम्भन एव च वृत्ताकरस्तालो मधुरमधुकलोचनः वाचस्पत्यो वाजसनु नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारविद् ईशान ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भग आरी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोऽथ निशाकरः दम्भो यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता यनौषधः अक्षरं परमं ब्रह्म बलवच्छक्र एव च निधिर्यनितिः शुद्धात्मा शुद्धो मान्युगतागतः बहुप्रसादः सुस्वप्न दर्पणोऽथ त्वमित्रजित् वेदकारो मन्त्रकारो विद्वान् समर्मर्दनः महामेघनिवासी च महाघोरवशीकरः अग्निज्वालो महाज्वालो अति धूम्रहुतो हविः वृषणः शंकरो नित्यं वर्चस्वी धूमकेतनः नीलस्तथांगलोभश्च शोभनो निर्वक्त्रः स्वस्तिदः स्वस्ति भावश्च भागी भाग करो लघु उत्संगश्च महांगश्च महागर्भपरायणः। कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां महापादो महाहस्तो महाकायो महायशः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः महानासो महाकम्बुर् महाग्रीवः श्मशानभाग् महावक्षा महोरस्को यन्तरात्मा मृगालयः लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोम महाकोशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजेतश्च महामुनिः वृक्षाकारो वृक्षकेतुर्नलो वायुवाहनः कण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रमिति क्षणः यजुः पादभुजो गुह्य प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्व कनकः काञ्चन छविः नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तं कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगुप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्री शुक्लसम्पन्नः शुचिर्भूतनिषेवितः। आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो जम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो यदितिस्तारक्षय सुविज्ञः सुशारदः परश्वधायुधो देवो अनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेतजलेशयः उग्रो वंशकरो वंशो वंशनादो यनिन्दितः सर्वाङ्गरूपो मायावि सुहृदो यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धन विमोचनः स यज्ञारिः सकामारि महादंष्ट्रो महायुधः बहुधा निन्दितः शर्व शङ्करः शङ्करोधनः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुन्ध्यो नीलाभश्च चेकितानुः विस्तथा अजैकपाच कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा आताशक्रश्च विष्णुश्च मित्रस्त्वष्ट ध्रुवधरः प्रभावः सर्वगो वायुरर्यमा सविता रविः भुशङ्गुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्ण विभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रोनिलो नलः बलवाञ्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्तः सदसत् सर्वरत्नविद् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यु बहुप्रदः वणिजो वर्धकी वृक्षो बकुलश्चन्दनच्छदः सारग्रीवो महाजत्रुर्लोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमालिसभावनः भूतालयो भूतपते रहोरात्रमनिन्दितः वाहिता सर्वभूतानां निलयश्च विभुर्भवः अमोघः संयतो यशो भोजनः प्राणधारणः धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः गोपालिर्गोपतिर्ग्रामो गोचरम वसनु हरिः हिरण्यबाहुश्च तथा गुहापालः प्रविशिनां प्रकृष्टारिर्महाहर्षो जितकामुजितेन्द्रियः गान्धारश्च सुवासश्च तपः सक्तुरतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेवितः महाकेतुर्महाधातुर्लैकसानुचरशलः आवेदनीय आदेशः सर्वगन्धसुखावहः तोरणस्तारणो वातः परिधिपतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः नित्यात्मसहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः वपुरा वर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्य तीर्थ देवो महारथः निर्जीवो जीवनो मन्त्रः सुभाक्षो बहुकर्कशः रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपुनिधिः आरोहणो धीरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वदः न्यायनिर्वपणः पादः पण्डितो यचलोपमः बहुमालो महामालः शशिहर सुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिलोचनो विषण्णाङ्गो मणिविद्भुजटाधरः विन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणा मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् छत्रं सुछत्रो विख्यातो लोकः सर्वाशयक्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुभो वज्री शतजिह्वसहस्रपात् सहस्रमूर्धा देवेन्द्र सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्ग शरण्यः सर्वलोककृत् पवित्रं त्रिककं मन्त्रः कनिष्ठः कृष्णपिङ्गलः ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्थिर्ब्रह्मकृत् ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयं भुवः ऊर्ध्वगात्मा पशुपतिर्वातरं भामनोजवः चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः करिणिकार महास्त्रग्वी नीलमौलिः पिनाकधृत् उमापतिरुमाकान्तो जाह्नवी धृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहास्वनः मा प्रसादो दमनः शत्रुहाश्वितपिङ्गलः पितात्मा परमात्मा च त्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्रयक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गो वृषेश्वरः साध्यर्षिर्वसुरादित्यो विवस्वांसवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः परयो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्या समपनः कलः काष्ठा लवा मात्र मुहूर्ताः छपः क्षणा विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः सदसद्व्यक्तमव्यक्तं पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् నిర్వాణం లాదనశ్చైవ బ్రహ్మలోకః పరగతిః దేవాసుర వినిర్మాత దేవాసుర పరాయణః దేవాసుర గురుర్ దేవో దేవాసుర నమస్కృతః దేవాసుర మహామాతృ దేవాసుర గణాశ్రయః దేవాసుర గణాధ్యక్షో దేవాసుర గణాగ్రణీః దేవాతి దేవో దేవర్షిర్ దేవాసుర వరప్రదః దేవాసురేశ్వరో విశ్వో దేవాసుర మహేశ్వరః సర్వ దేవమయో చింత్యో దేవతాత్మాత్మ సంభవః ఉద్భిత్రీ విక్రమో వేద్యో విరజో నిరజో మరః దివ్యో హస్తీశ్వరో వ్యాఘ్రో దేవసింహో నరర్షభః విబుద్ధోగ్రవరః సూక్ష్మః సర్వదేవస్తపోమయః సుయుక్తః శుభనో వజ్రీ ప్రాసానాం ప్రభవోప్యయః గుహః కాంతో నిజః సర్గః పవిత్రం సర్వపావనః శృంగీ శృంగ ప్రియో వభ్రు రాజరాజో నిరామయః అభిరామః సురగణో విరామః సర్వసాధనః లలాటాక్షో విశ్వదేవో హరిణో బ్రహ్మవర్చసః స్థావరాణాం పతిశ్చైవ నియమేంద్రియవర్ధనః సిద్ధార్థః సిద్ధభూతార్థో చింత్యః సత్యవ్రతః శుచిః వృతాధిపః పరం బ్రహ్మ భక్తానాం పరమాగతిః విముక్తో ముక్తతేజశ్చ శ్రీమాన్ శ్రీవర్ధనో జగత్ యథా ప్రధానం భగవానితి భక్త్యా స్తుతుమయా యన్న బ్రహ్మాదయో దేవ విదుస్తత్త్విన నరశయః స్తోతవ్యమర్చ్యం వంద్యం చకః స్తోష్యతి జగత్పతిం భక్త్యా త్వేవం పురుష్కృత్య మయా యజ్ఞపతిర్విభుః తతోభ్యనుజ్ఞాం సంప్రాప్య స్తుతో మతిమతవరః శివమేభిస్తువన్ దేవం నామాభి పుష్టివర్ధనైః నిత్యయుక్తః శుచిర్భక్తః ప్రాప్నోత్యాత్మాన్మాత్మనా. ఏతద్ధి పరమం బ్రహ్మ పరమం బ్రహ్మాధిగచ్చతి ఋషయశ్చైవ దేవాశ్చ స్తువంత ఏతిన తత్పరం స్తూయమానో మహాదేవస్తుష్యతే నియతాత్మభిః భక్తానుకంపీ భగవాన్ ఆత్మసంస్థాకరు విభుః తథైవ చ మనుష్యేషు యే మనుష్యాః ప్రధానతః ఆస్తికాః శతధానాశ్చ బహుభిర్జన్మభిః స్తవైః భక్త్యా హ్యనన్యమీషానం పరమం దేవం సనాతనం కర్మణా మనసా వాచా భావేనామిత తేజసః శయానా జాగ్రమాణాశ్చ వ్రజన్నుపవిశంస్తథా ఉన్మిషన్ నిమిషంశ్చైవ చింతయంతః పునః పునః శ్రువంతః శ్రావయంతశ్చ కథయంతశ్చ తే భవం స్తువంతః స్తూయమానాశ్చ తుష్యంతి చరమంతి చ జన్మకోటిసహస్రేషు నానాసంసారయోనిషు జంతుర్విగత పాపస్య भवे भक्ति ही प्रजायते, उत्पन्ना च भवे भक्तिर्नन्या सर्वभावतः, भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा। एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते, निर्विघ्नानिश्चला रुद्रे भक्तिरव्यभिचारिणी, तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्, येन याति परां सिद्धिं तद्भावगतचेतसः। ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरं, प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत्। एवमन्ये विकुर्वन्ति देवः संसारमोचनं, मनुष्याणामृते देवं नान्या शक्तिस्तपो बलम्। इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः, कृत्तिवासः स्तुतः कृष्णतण्डेन शुभबुद्धिना, स्तवमेतं भगवतो ब्रह्मा स्वयं धारयत्, गीयते च स बुद्धयेत ब्रह्मा शंकर सन्निधौ। इदं पुण्यं पवित्रं च सर्वदा पापनाशनं, योगदं मोक्षदं चैव स्वर्गदं तुषदं तथा। एवमेतत् पठन्ते य एकभक्त्या तु शंकरं, या गतिः सांख्ययोगानां व्रजन्ते तां गतिं तथा। स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ, अब्दमेकं चरिद्भक्तः प्राप्नुया दीप्सितं फलम्। एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितं, ब्रह्मा प्रोवाच शक्राय, शक्रः प्रोवाच मृत्युवे, मृत्युः प्रोवाच रुद्रेभ्यो, रुद्रेभ्यस्तण्डिमागमत्। महता तपसा प्राप्तस्तण्डिना ब्रह्म सद्मनि, तण्डिः प्रोवाच शुक्राय, गौतमाय च भार्गवः, देवस्वताय मनवे गौतमः प्राह माधव, नारायणाय साध्याय समाधिष्ठाय धीमते, यमाय प्राह भगवान् साध्यो नारायणोच्युतः, नाचिकेताय भगवानाह वैवस्वतो यमः, मार्कण्डेयाय वार्ष्णेय नाचिकेतुभ्य भाषत। मार्कण्डेयान् मया प्राप्तो नियमेन जनार्दन, तवाप्यहम मित्रघ्न स्तवं दद्याम्य विश्रुतम्। स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन संवितं, नास्य विघ्नं विकुर्वन्ति दानवा यक्ष राक्षसाः, पिशाचाया तु धानाव गुह्यका भुजगापि। यः पठेत् शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः, अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्।